येनाक्षरसमां नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः येन धौतागिरपुंसां विवदैः शब्दवारिभिः तमश्चाज्ञानजं बिन्दुं तस्मै पाणिनये नमः वाक्यकारं भरतरुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं नत्वा सरस्वतीं देवीं शुद्धां पुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदी कौमुदीं गुरुरेव गतिः गुरुमेव गते गुरुमेव सहास्मि नमो गुरवेण गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरो मम पाहि गुरो ॐ नमः पाणिनि कात्यायन पतञ्जलिभ्यः शब्दविद्यासम्प्रदाय प्रवर्तकेभ्यः नमो मुनिभ्यः नमो गुरुभ्यः श्रूयते वा सुजाता भगिनी श्रूयते वा श्रूयते वा श्रूयते वा अस्तु सुब्रह्मण्य महोदय श्रूयते वा अस्तु वयम् ईकारान्तपुल्लिङ्गशब्दानां प्रक्रियाविषये किञ्चित् अध्ययनं कृतवन्तः तत्र अस्माभिः किं कृतम् इत्युक्ते ईकारान्तपुल्लिङ्गशब्दविषये आदौ पातिलोकम् इति पपीः सूर्यः इत्यत्र दीर्घाध्वसि च इति तत्र सर्वत्र यण् दीर्घाध्वसि च इति निषेधः पूर्वसवर्णस्य निषेधः ततः यण् एवं सर्वत्र यण्णेव भवति पपीः इत्यत्र अनन्तरं बहुश्रेयसी इति शब्दं वयं अधीतवन्तः तत्र बहुश्रेयस् तत्रैव अस्माभिः यूस्त्राख्यो नदी इति नदीसंज्ञाविषये प्रथमलिङ्गग्रहणं च यद्यपि नित्यस्त्रीलिङ्गशब्दः श्रेयसि इति शब्दः तथापि बहुश्रेयसि इत्यत्रापि नदीसंज्ञा अस्ति प्रथमलिङ्गग्रहणं प्रथमलिङ्गग्रहणं च इति वाक्तिकेन नदीसंज्ञा बहुश्रेयसी इत्यस्यापि भवति तदनन्तरं बहुश्रेयसी शब्दस्य प्रक्रियाविषये आण्नद्याः आटश्च इति नदीसंज्ञकविशेषकार्याणि अधीत्य सप्तमीभक्तौ मेरां नद्यां नीभ्यः इति तदपि अधीतवन्तः तदनन्तरं अतिलक्ष्मीशब्दः अतिलक्ष्मीः अतिलक्ष्म्यौ अतिलक्ष्म्यः इति तस्य विषये किञ्चित् ज्ञातवन्तः अनन्तरं प्रध्यायति इति प्रधीः ह्यः ह्यस्तनकक्षायां प्रध्यायति इति प्रधीः अत्र प्र उपसर्गपूर्वकध्यै चिन्तायाम् इति धातोः ध्यायते सम्प्रसारणं च इति वार्तिकेन क्विप्रत्यये कृते सम्प्रसारणं भवति ततः प्रधीति शब्दस्य निष्पन्नं भवति तस्य प्रातिपदिके सति प्रधीः प्रध्यौ प्रध्यः इति रूपं भवति तत्र अस्माभिः अधीतं प्रज्ञायति इति प्रदीहीति इति कृते तत्र आदौ पूरकवर्णदीर्घे प्राप्ते दीर्घादशि च इति निषेधे सति पुनः इको इणचि इति यण् प्राप्ते तदा अचिष्टु धातु ब्रुवाङ् योर् इयङौ इति सूत्रेण इयङ् प्राप्तिः इयङ् प्राप्तिः अस्ति. तदनन्तरं अस्य अपवादत्वेन यरनेकासु असंयोगपूर्वस्य अत्र प्रधीत्यस्य धी इवर्णान्तधातुः अस्ति जै चिन्तायाम् इति उक्तम् अस्माभिः. इवर्णान्तधातुः अस्ति, ततः पूर्वं संयोगः नास्ति, इकारात् पूर्वं संयोगः नास्ति. अतः अत्र यरनेकासु असंयोगपूर्वस्य इति यण् भवति, सर्वत्र यण् भवति. प्रधीः प्रध्यौ प्रध्यः प्रध्यं प्रध्यौ प्रध्यः तत्र तस्मात् सो न पुंसि इति न भवति, यतोहि पूरसवर्णदीर्घः एव निषेधः भवति. कथं तत्र तस्मात् शशोनपुंसि इति प्रश्नः भवति. एवं प्रकृष्टाभिः यस्य सः इति प्रधीशब्दस्य निष्पत्तिः यदा क्रियते तत्र किं भवति, तत्र अत्र प्रथमलिङ्गग्रहणञ्च इति नदीसंज्ञः भवति. अतः आन् नद्याः आटश्च नेरां नद्यां नीभ्यः इति नदीकार्याणि यानि सन्ति ते अपि भवन्ति इति ह्यः अस्माभिः एतावत्पर्यन्तम् अधीतम्. इदानीम् अद्य यरनेकासो असंयोगपूर्वस्य इति अस्ति, तत्र अस्माभिः किम् उच्यते, एवं ग्रामणीः ग्रामं नयति इति ग्रामणीः, नौ तु ग्रामण्यां, नौ इत्युक्ते नी प्रत्यये परे ग्रामण्याम् इति भवति. इदानीं ग्रामणीशब्दस्य रूपाणि यः कोऽपि वदति वा? महादेवन् महोदय, तस्य म्यूट् एव न अटेण्डीस् म्यूटेड् बै एन् आर्गनैज़र्, किमर्थम् अन्म्यूट् न भवति इति न जानामि. सुजाता भगिनी, ग्रामणीशब्दः ग्रामणि शब्दः कथं भवति किम भवत पद्मावती ग्रामणी शब्दः अत्र हा ग्रामणी शब्दस्य ग्रामं नयति इति ग्रामणीः नी प्रीणने प्रापणे धातोः क्विप्रत्यये कृते ग्रामणी इति शब्दः इदानीं ग्रामणी इत्यत्र नकारस्य नकारः अस्ति अग्रग्रामाभ्यां नयतेर्णो वाच्यः इति नकारः नत्वं तत् वार्तिकेन भवति इदानीं ग्रामणी शब्दे नी इति इवर्णान्तधातुः अस्ति इवर्णात् पूर्वम् असंयोगः नास्ति अनेकाच् अङ्गम् अस्ति अतः अजादि प्रत्यये परे सर्वत्र यरनेकाचो इति यण् यण् भवति अचिष्टु धातु ब्रुवाङ् इत्यस्य इति सूत्रस्य प्राप्तिः एव नास्ति ग्रामणीशब्दः नित्यस्त्रीलिङ्गः नास्ति किन्तु साधारण सर्वत्र साधारण त्रिषु लिङ्गेषु समानरूपः अस्ति ग्रामं नयति इति ग्रामणीः इत्युक्ते समान रूपमस्ति यूस्त्राख्यो नदी इति नदीसंज्ञा न भवति अतः आट् नुट् नदीकार्याणि न भवन्ति इदानीं वक्तुं शक्यते ग्रामणीः किं भवति इति सर्वत्र यण्येव भवति ग्रामणीः ग्रामण्यौ ग्रामण्यः हे ग्रामणीः हे ग्रामण्यौ हे ग्रामण्यः ग्रामणीं ग्रामण्यौ ग्रामण्यं ग्रामण् ग्रामण्या न न न ग्रामणीं न भवति यदनेकाचित् यण् भवति किल ग्रामण्यं यत् ग्रामण्यः ग्रामणीभिः ग्रामण्यां किं भवति नेरां न वस्तुतः प्रधी शब्दे प्रध्यायति इति प्रधीः इत्यत्र प्रध्यी इति भवति परन्तु अत्र किम् इत्युक्ते ग्रामणी अत्र गेरां नद्यां नीभ्यः इति नी इति साक्षात् निर्देशः अस्ति गेरां नद्यां नीभ्यः नीभ्यः इति नी इति साक्षात् निर्देशः अस्ति अतः आं भवति तर्हि ग्रामण्याम् इत्येव भवति ग्रामण्यां ग्रामण्योः ग्रामणीष्यु ग्रामणीषु महादेवन् महोदय किमपि सन्देहः अस्ति वा एवं ग्रामणीशब्दः इदानीं प्रश्नः दलकृत्यं यरनेकाचो असंयोगपूर्वस्य इत्यत्र अनेकाच् इति किं किमर्थम् अत्र उक्तं यदि अनेकाच् इति न उच्यते तदा किं भवति अनेकाचः इति किम् इत्युक्ते नीहि नियौ नियः अत्र किं भवति अत नी शब्दस्य नयति इति नीहि इति शब्दस्य यण् स्यात् तदेव अतः अनेकाच् इति उक्तं नो चेत् नयति इति नीहि इत्यत्र यण् भवति నీహి నియో నియః ఇత్యత్ర అనేకత్వ అనేకత్వ అభావాత్ అత్ర అచిష్టు ధాతు బ్రువాన్ యంగ్ వనౌ ఇతి యంగ్ ఆదేశః ఏవ భవతి. ఇదానీ నీహి శబ్దస్య రూపాణి వదంతు. మహాదేవన్ మహోదయ, అస్తు 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 నీషు నీషు సంబోధన ప్రకారం భక్తి సమీచీనం. ఇదానీ ప్రశ్న, నీహి ఇత్యత్ర కిమర్థం సులోపః న? సుబ్రహ్మణ్య మహోదయ, అస్తు. శారదా భగిని, ఇదానీం మహాదేవన్ మహోదయ శబ్దం ఉక్తవాన్ నీహి నియౌ నియః ఇతి. నీహి ఇత్యత్ర కిమర్థం సులోపః నాస్తి? హల్న్యాది సులోపః, హల్న్యాభ్యో దీర్ఘశ్రుతిశ్చ పృష్టం హల్ ఇతి సులోపః కిమర్థం నాస్తి? పద్మా భగిని, తత్ర నీహి ఇత్యత్ర న్యంతత్వం నాస్తి. ఇదానీం సులోపః హల్ న్యాభ్యో దీర్ఘాత్, హల్ న్యాభ్యో నీ ఆభ్యో, అత్ర న్యంతత్వం నాస్తి, స్త్రీ ప్రత్యయ న్యంతత్వం నాస్తి, అతః అత్ర సులోపః న భవతి. ఇదానీం అమి నియమ్ ఇతి అమ్ అస్తి. నియమ్ ఇత్యత్ర అమి పూర్వ ప్రథమయో పూర్వకవర్ణ అతిష్ణు ధాతు బ్రువాం ఇతి సూత్రం కుత్ర అస్తి? అతిష్ణు ధాతు బ్రువాం ఇది సూత్రం పరసూత్రమస్తి, అతః ఏతత్ సూత్రం సర్వాన్ బాధిత్వా ఆగచ్చతి. అత్ర నదీ సంజ్ఞా అస్తి వా నాస్తి వా? నదీ సంజ్ఞా అపి నాస్తి, యతో హి అత్ర నిత్యస్త్రీలింగ శబ్ద ఇయంగేవ ఆదేశ భవతి. ఏవం అంబార్తనభ్యోర్హ్రస్వ ఇది హ్రస్వ అపి న భవతి, హే నీహి ఇత్యేవ భవతి, యతో హి నదీ సంజ్ఞా ఏవ నాస్తి. ఇదానీ అగ్రిమ వాక్యం, అసంయోగపూర్వస్య ఇది కిం? ఇది ద్వితీయ దళకృత్యం. అసంయోగపూర్వస్య ఇది కిం? ఏకనిమిషం పశ్యామః. ఓ, దళకృత్యం నామ దాని నీహి శబ్ద ఏమస్తి? దళకృత్యం ఇత్యుక్తే కీపింగ్ వన్ థింగ్ కాన్స్టెంట్. ఇదానీ దళకృత్యం నామ ప్రశ్న క్రియతే, యరనేకాచ్ ఇత్యత్ర అనేకాచః ఇతి కిం? ఇదానీ పాణినిః సూత్రరచనా సూత్రరచనాం కృతవాన్, తత్ర అస్మాభిః ప్రశ్న క్రియతే यदि अस्मिन् सूत्रे यद् अनेकाचिति पदं नास्ति अन्यत् सर्वम् अस्ति तदा कुत्र दोषः स्यात् इति प्रश्नः। इत्युक्ते सर्वेषां पदानां सार्थक्यं दलकृत्येन साध्यते, दलकृत्येन साध्यते। अनेकाचः इति किं? कान्स्टेंट, वन यू रिमूव एंड से अदर्स आर देयर, व्हाट विल हैपन, वेयर द दोष विल कम, इन विच केस, इन विच केस दोष विल कम, दैट इज व्हाट इज द इंटेंशन ऑफ ए दलकृत्य। सो द सार्थक्य ऑफ एवरी वर्ड इन द शब्द इज ऑब्टेन्ड बाई डूइंग दिस दलकृत्य। दलकृत्य यतोहि तत्र आचार्यः ऋषितुल्यः छन्दोवत् सूत्राणि भवन्ति, एकेनापि वर्णेन आनर्थक्यं न भवेत्, एतत् सर्वं व्याकरणशास्त्रस्य उद्देशः। सिंगल लेटर कैनॉट बी मोर और कैनॉट बी दट इज वै दलकृत्य सिद्धांत कौमुदी इत्यादि उपरिस्तन ग्रंथेषु दलकृत्यं बहु अस्ति। लघु कौमुद्यां दलकृत्यं प्रायः न भवन्त्येव, परन्तु अत्र अस्ति। अचिष्टु धातु ब्रुवांग यं ओनौ यरेनेकाचो इति सूत्रे तत्र दत्तमस्ति। प्रायः तत्र सिद्धांत विषये प्रत्युदा लघुकौमुदी सिद्धान्तकौमुद्योः भेदः प्रायः वृत्तिषु प्रायः भेदः नास्ति, सूत्राणां न्यूनता अस्ति। दलकृत्यानि एतादि विचाराः तत्र सिद्धान्तकौमुद्यां भवन्ति। अत्र प्रायः तत् न्यूनमस्ति। अवगतम्, अस्तु। इदानीम् असंयोगपूर्वस्य इति किम् इति द्वितीयः दलकृत्यम्। असंयोगपूर्वस्य इति किम्? सुश्रियौ व्यवक्रियौ इत्यत्र यण् सुश्रियौ नाम किम्? सुष्टु श्रयति इति सुश्रीः, सुपूर्वक श्री धातुः, श्री धातोः सेवायाम् इति अर्थः अस्ति। एवं श्री धातोः सुपूर्वक श्री धातोः क्विप्रत्यये कृते सुश्री इति भवति, तदनन्तरं दीर्घः भवति सुश्री इति भवति। सुष्टु श्रयति इति इत्युक्ते सर्वलिङ्गेषु समानं भवति, अतः नदीसंज्ञा नास्ति, इत्युक्ते नित्यस्त्रीलिङ्गत्वं नास्ति, नदीसंज्ञा नास्ति, नित्यस्त्रीलिङ्गत्वं नास्ति, नदीसंज्ञा नास्ति। इदानीम् इकारः अस्ति, सुश्रीशब्दः इकारः, इकारात् पूर्वं किम् अस्ति? शृ इति संयोगः अस्ति। यरनेकाचो इति सूत्रे असंयोगपूर्वस्य इति यदि न उच्यते तर्हि सुश्रियौ इत्यत्र किं भवति? यण् भवति। परन्तु इदानीं किं भवति? यण् न भवति। इदानीं यण् न भवति, यण् न भवति। एतदेव प्रयोजनं, सुश्रियौ यवक्रियौ इत्यत्र यण् मा भूत् इति कारणेन पाणिनिः यरनेकाचो इति सूत्रे असंयोगपूर्वस्य इति लिखितवान् इति सूत्रं कृतवान् इति सूत्ररचनां कृतवान्। अतः अदादिप्रत्यये परे यण् सुश्रियो यवक्रियो इत्यत्र यन्न भवति यवक्रियो इत्यस्य अर्थः यवान् क्रीणाति इति यवक्रीः क्री शब्द क्री धातोः पिप् प्रत्ययस्य रूपम् एवम् अत्रापि धात्वयव संयोगपूर्वकत्वात् इत्युक्ते अत्र धात्वय अवयवः एव संयोगः यदि धात्ववयवः न संयोगः यदि उपसर्गः वा किमपि अन्यत् अस्ति चेत् तत्र यन् भवति अत्र धात्ववयवः अस्ति श्रयति इति श्रयति इति श्रीः इति अस्ति अतः श्र इति धात्वयव अवयव अवयवस्य संयोगः अतः अत्र यन् न भवेत् इति कारणेन असंयोगपूर्वस्य इति उक्तम् एवं यवक्रीशब्दः कथं भवति इत्युक्ते यवक्रीशब्दः पुनः असंयोगपूर्वस्य इत्यस्य प्रत्युदाहरणम् अत्र डुक्री द्रव्यविनिमये इति धातोः क्विप्रत्ययः सुश्रीशब्दस्य समानमेव भवति सर्वत्र अजादिप्रत्ययेषु इयं भवति अचिष्टु धातु ब्रुवान् इति इयङ् भवति नदीसंज्ञा नास्ति इदानीं यवक्री सुश्रीः इति अभवत् अग्रिमसूत्रं गतिश्च गतिश्च इति अस्ति इदानीं गतिश्च इति सूत्रं प्रथमाध्यायस्य चतुर्थपादस्य 59 वा 60 वा अस्ति चतुर्थ 60 वा हा अस्तु षष्टितमं वा ऊनपञ्चाशत्तमं सूत्रम् अस्य अर्थः प्रादेयः क्रियायोगे गतिसंज्ञाः स्युः ततः पूर्वं प्रादेयः क्रियायोगे इति अस्ति उपसर्गाक्रियायोगे प्रादयः गतिश्च इति सूत्रस्य क्रमः सूत्राणां क्रमः प्रादयः क्रियायोगे गतिसंज्ञकाः भवन्ति इदानीम् आकडारादेकासंज्ञा इति प्रथमाध्यायस्य चतुर्थपादे प्रथमं सूत्रम् आकडारादेकासंज्ञा कडाराकर्मधारये इति सूत्रपर्यन्तम् अष्टाध्यायी अस्ति वा सर्वेषां हस्ते कृपया अष्टाध्यायीम् उद्घाटयतु हा आ कडारा कर्मधारय इति कुत्र अस्ति पश्यतु कडारा कर्मधारय इति सूत्रं कुत्र अस्ति टु टु तर्टि एट् तावत्पर्यन्तम् एकसंज्ञाधिकारः विद्यते एकसंज्ञाधिकारः विद्यते इत्युक्ते यदि संज्ञा आगच्छन्ति एकस्य एका एव संज्ञा इति नियमः इदानीं गतिश्च प्रादयः उपसर्गक्रियायोगे गतिश्च इति तत्र सूत्रक्रमः अस्ति प्रादीनाम् इत्युक्ते एकविंशति उपसर्गाणाम् उपसर्गक्रियायोगे उपसर्गसंज्ञा अस्ति प्रादीनाम् प्रादयः कति सन्ति प्रादयः एकविंशति सन्ति तेषाम् उपसर्गसंज्ञा अस्ति क्रियायोगे इदानीम् उपसर्गसंज्ञा अस्ति इदानीं पुनः तेषां गतिसंज्ञा विधीयते अस्माभिः प्रश्नः पृच्छ्यते कथम् अत्र ये आकडारादेका संज्ञा इति एका एव संज्ञा अस्ति कथम् इदानीं संज्ञाद्वयस्य प्रसक्तिः इति प्रश्ने कृते तदा उच्यते गतिश्च इत्यत्र चकारः अस्ति अतः चकार निर्देशात् अत्र संज्ञाद्वयं स्वीकर्तुं शक्यते. तदनन्तरं प्राग्रीश्वरान् निपाताः इति सूत्रमस्ति. प्राग्रीश्वरान् निपाताः इति सूत्रं कुत्र अस्ति कृपया पश्यन्तु. 1455 वा पञ्च पञ्चाशत् वा षट् पञ्चाशत् वा अस्ति. हा षट् पञ्चाशत्तमं. तर्हि प्राग्रीश्वरान् निपाताः इति सूत्रे इति सूत्र अधिकारसूत्रमस्ति. तत्र पठितत्वात् निपातसंज्ञा अपि अस्ति. यदि निपातसंज्ञा अस्ति तस्य किं प्रयोजनम् इति प्रश्नः. स्वरादिनिपातम् अव्ययम् इति तस्य प्रयोजनम्. निपातानाम् अव्ययसंज्ञा विधीयते अतः संज्ञा निपातसंज्ञापि प्राग्रीश्वरान् निपाताः इति एतेषां निपातसंज्ञा अपि अस्ति. इदानीं प्रश्नः अस्ति यदि प्रादीनाम् उपसर्गसंज्ञा अस्ति तेन क्रियायोगे तर्हि गतिसंज्ञा अपि अस्ति. किमर्थं गतिसंज्ञायाः प्रदानं गतिसंज्ञायाः प्रदा वै वै आर् वि गिविङ्ग् टु संज्ञास्तु प्रादिस् देर् आर् 21 प्रादिस् इन् फ्रण्ट् आफ् क्रियास् दे गेट् द नेम् उपसर्ग. वै आर् वि गिविङ्ग् गति अनदर् नेम् विच् इस् नाट् रिक्वैर्ड् वेर् अवर् गति कार्य इस् देर् यु टेल् इट् अस् उपसर्ग. वै आर् यु टेलिङ्ग् गति अण्ड् गिविङ्ग् वन् मोर् नेम् अण्ड् कन्फ्यूसिङ्ग् एव्रिबडि इति तत्र प्रश्नः. तदा उच्यते उप अत्र गतिसंज्ञा गतिसंज्ञकशब्दाः न तु केवलं प्रादयः. ओन्ली प्रादीस् आर् डु नाट् गेट् गतिसंज्ञा. देर् आर् अदर् शब्दास् आल्सो विच् गेट् गतिसंज्ञा. विच् आर् दो शब्दास्? उर्यादि च्विडातश्च 1460. कृपया अष्टाध्यायीं पश्यन्तु. इदानीं सूत्रक्रमम् एकवारं पठतु महादेवन् महोदय. प्रादयः 58 59 60. उर्यादि च्विडातश्च अनुकरणं चानिति परम् इति 62. इदानीं उर्यादि च्विडातश्च आल्सो उर्यादि शब्दाः च्यवन्तशब्दाः दादन्तशब्दाः. दाचश्च इत्युक्ते दादन्तशब्दाः क्रियायोगे गतिसंज्ञकाः भवन्ति. दट् इस् द मीनिङ्ग् आफ् उर्यादि च्विडातश्च. सो दट् मीन्स् देर् आर् अदर् शब्दास् विच् गेट् गतिसंज्ञा नाट् ओन्ली प्रादयः 21. वेरास् उपसर्ग ईस् वालिड् फार् ओन्ली 21. अवगतं वा? अतः पाणिनिः हेड् टु गिव् गतिसंज्ञा. वै डिड् हि गिव् फार् दीस् गतिसंज्ञा? देर् आर् अदर् कार्यास् विच् आर् गोन् टु कम् लेटर्. अनुकरणं चानिति परम् इत्युक्ते अनुकरणं क्रियायोगे यदि अनुकरणम् अस्ति तर्हि गतिसंज्ञकाः भवन्ति. यदि इदानीम् अत्र एवम् अस्ति यदि सर्वत्र गतिसंज्ञा गति सर्वत्र उपसर्गसंज्ञा इत्येव पाणिनिना क्रियते तर्हि अन्यगतिसंज्ञकशब्दानाम् उर्यादि च्यवन्त दादन्त शब्दानां का गतिः? तेषां कृते पुनः गतिग्रहणं कर्तव्यमेव. अतः पाणिनिः किं कृतवान्? प्रादीनां क्रियायोगे गतिसंज्ञा भवन्तु, तेषाम् उपसर्गसंज्ञा भवतु, गतिसंज्ञा अपि भवतु, गतिश्च इति सः उक्तवान्, चकारमपि योजितवान्. अतः एकं कन्सालिडेटेड् काम्प्रिहेन्सिव्लि हि हस् डेल्ट् वित् दट् सब्जेक्ट्. महादेवन् महोदय अवगतं वा? हा सुजाता भगिनी, सुजाता भगिनी सेल्फ् म्यूटेड् वा? किं ओ ඇස්සොත් ඕ එවම් අස්තු ඉදානින් ගති සංඥක ගතිස්සයිති ගති එක සංඥා සූත්‍රම් ගතිස්සයිති සංඥා සූත්‍රම් අස්ති ගතිස්සයිති ඉදානින් සංඥා සූත්‍රම් කුතහ අස්මින් ප්‍රකරණේ ඊකාරාන්ත පුල්ලිංග ශබ්ද ප්‍රකරණේ කිමත්තම් දත්තම් ඉති ප්‍රශ්නහ තදා උච්චතේ අග්‍රිම වාර්තිකම් ආගච්ඡති ගතිකාරකේතර పూర్වපදస్య යන් නේශ్యතේ ఇది యది యక్కోపి శబ్దః భవతి తస్య పూర్వపదం గతి సంజ్ఞకోవా గతి సంజ్ఞకః కారక భిన్న శబ్దః భవతి గతి సంజ్ఞకః అస్తి చేత్ కారక భిన్నం శబ్దం అస్తి చేత్ యర్ యన్ అనేకాచః ఇతి యన్ న భవతి ఇదానిం యర్ అనేకాచః అతిష్ణు ధాతు బ్రువాం ఇత్యస్యైవ ప్రసంగః ఇదానిం యరనేకాచః ఇతి కుత్ర ఈ ఉదాహరణం పశ్యామః శుద్ధ ధియౌ ఇతి అస్తి శుద్ధాధీః యస్య సః ధీ శబ్దః శుద్ధాధీః యస్య సః శుద్ధధీః బహువ్రీహి సమాసః శుద్ధ ఇతి శబ్దం పూర్వపదం ధీ ఇతి శబ్దం ఉత్తరపదం పూర్వపదం పూర్వపదం నతు గతి సంజ్ఞకః అస్తి న కారకమస్తి అతః కారకం నామ కర్తృకారకం కర్మకారకం కరణకారకం సంప్రదాన అపాదాన అధికరణకారకం అత్ర కారకమపి నాస్తి గతి సంజ్ఞకోపి నాస్తి శుద్ధ ఇతి ధీ శబ్దస్య విశేషణం అస్తి అతః అత్ర యరణేకాతో అసంయోగపూర్వస్య ఇతి సూత్ర అనుసారేణ అత్ర సర్వే నియమాః సూత్ర నియమాః అత్ర సమభవంతి తథాపి అత్ర యన్ న ఇష్యతే అత్ర యన్ అస్మాభిః న ఇష్టః యతో హి అత్ర కిమ్ అస్తి గతికారక ఇతర గతి గతి సంజ్ఞా నాస్తి కారక సంజ్ఞా నాస్తి పూర్వపదస్య అతః కిమ్ భవతి అతిష్టు ధాతు బ్రువాం ఇతి యం ఏవ భవతి నతు యన్ ఇతి కేన కేన వార్తికేన అనేన వార్తికేన ఇతి ఉచ్యతే శుద్ధదీ శుద్ధాదీహి శుద్ధదీ శబ్దః నిత్య దీ శబ్దః నిత్య స్త్రీలింగః అతః ప్రథమ లింగ గ్రహణం చ ఇతి శుద్ధదీహి ఇత్యస్య యూస్త్రాఖ్యో నదీ ఇత్యనేన నదీ సంజ్ఞా నదీ సంజ్ఞా తు అస్తి పరంతు నేయం వన్ స్థానావత్రి ఇతి ఏకం సూత్రమస్తి తస్య నేయం న యంగ్ వం స్థానౌ అస్త్రి యది స్థానౌ ఇత్యుక్తే ఏక నిమిషం నేయం వం స్థానావత్రి ఇతి స్త్రీలింగ ప్రకరణే అస్తి సూత్రం కుత్ర అస్తి ఇత్యుక్తే విభాషాదిక్ సమాసే బహువ్రీహౌ ట్వంటీ 29 మధ్య అస్తి లఘుకౌముద్యాం అజంత శ్రీలింగ ప్రకరణే నేయం వం స్థానావత్రి ఇది సూత్రం అస్తి యంగ్ వం ఔ స్థితి యయోః తౌ ఈదూతౌ నదీ సంజ్ఞౌ నస్తః యది ఈకార ఊకారస్య స్థానే యంగ్ వం భవతి ఇత్యుక్తే స్థానౌ భవతి ఈకార ఊకార ऊकारस्य स्थाने यङ् वन् आदेशः भवति तत्र नदी संज्ञा न भवति त्रिशब्दं विहाय इति अस्ति स्थानि अत्र शुद्धधी इत्यस्य स्थानि शुद्धधी इत्यत्र ईकारस्य स्थानि इकारस्य स्थाने इयङ् आदेशः एवं स्थानौ आदेशः यदि अस्ति चेत् अत्र निषेधः एवं शुद्धधी शुद्धाधीः यस्यतः इत्यत्र एवं तत्र नदीसंज्ञापि नास्ति यरमेकाचिति यण्णपि नास्ति नदीसंज्ञककार्याणि यण् नास्ति इयङेव अस्ति नदीसंज्ञककार्याणि न भवन्ति यतोहि नदीसंज्ञा नास्ति शुद्धं ध्यायति इति यदि अस्ति इदानीं विग्रहः अस्ति चेत् शुद्धं ध्यायति इति अस्ति चेत् किं भवति शुद्धम् इत्यत्र कर्मकारकम् अस्ति शुद्धं ध्यायति कर्मकारकमस्ति अतः कारकपूर्वत्वमस्ति कारकपूर्वत्वमस्ति चेत् पूर्वपदं कारकम् अस्ति अतः किं भवति यन् भवति इत्युक्ते शुद्धधीः शुद्धध्यौ शुद्धध्यः इति भवति अत्र नदीसंज्ञा नास्ति यतोहि शुद्धं ध्यायति इत्यत्र ध्यायति इत्यत्र कुत्र स्त्रीलिङ्गशब्दः अतः धी शब्दः नास्ति अतः नदीसंज्ञा नास्ति नदीसंज्ञककार्याणि न भवन्ति परन्तु कारकमस्ति कारकमस्ति इति कारणतः अत्र यण् यरनेकाख्य यण् भवति कुत्र शुद्धं ध्यायति इत्यत्र शुद्धाधीः यस्य सः इत्यत्र बहुव्रीहि समासः धीः इति नित्यस्त्रीलिङ्गशब्दः योस्त्राख्यो नदी इति नदीसंज्ञा यद्यपि नदीसंज्ञा भवति नेयङ् वं स्थानावस्त्री इति अनेन स्थानिवत्वेन नदीसंज्ञायाः प्राप्तत्वात् अत्र नदीसंज्ञायाः निषेधः कृपया डोण्ट् फील् दट् आल् दिस् ईकारान्तशब्दास् आर् गेटिङ्ग् कन्फ्यूस्ड् इवन् फस्ट् टैम् एनिबडि रीड्स् ईकारान्त पुल्लिङ्गशब्द फस्ट् आफ् आल् ईकारान्त पुल्लिङ्गशब्दास् शब्दमञ्जरी मध्ये विशेषशब्दमध्ये भवन्ति अस्माभिः तत्र विशेष अवधानं वयं यदा छात्राः भवामः तदा विशेषशब्दानां पठनमेव न भवति तदनन्तरम् इदानीं तस्य प्रक्रिया तस्य यण् नदीसंज्ञा किं कारकं गति एतत् सर्वं विहाय बहु कन्फ्यूसिङ्ग् अस्ति अहम् अद्यैव अन्तिम पञ्चदशनिमेषमध्ये तत् समरैस् करोमि हौ मेनि टैप्स् आफ् ईकारान्तशब्दास् आर् देर् हौ दे हेव् टु बि क्लासिफैड् वाट् आर् द केसस् पासिबल् कथं तस्य सङ्ग्रहः इति एकं सङ्ग्रहं कृतवान् तत् सङ्ग्रहं यथामति उपस्थापयामि अग्रिम शब्दः अस्ति सुष्ठु ध्यायति इति सुधीः सुष्ठु ध्यायति इति सुधीः सुधीः इत्यत्र ईकारान्त पुल्लिङ्गशब्दः सुधीः सुधियौ सुधियः तत्र किं भवति ध्यै चिन्तायाम् इति धातुः अस्ति ध्यायते सम्प्रसारणं च इति कृत् परन्तु अत्र गतिकारकेतरपूर्वपदस्य यदि सुष्ठु ध्यायति इति अस्ति किल अजादिप्रत्ययेषु यरनेकाच असंयोगपूर्वस्य इति यण् भवति तदा अग्रिमसूत्रं प्रवर्तते नभूसुधियोः नभूसुधियोः इति अग्रिमसूत्रं षष्टाध्यायस्य चतुर्थपादस्य सूत्रम् इणो यण् इति यण् अनुवृत्तिः ओस्तुपि इत्यत्र सुपि इति अनुवृत्तिः, अतिष्ठु धातु इति अति इति अनुवृत्तिः। एतयोः नाम भू शब्दस्य सुधी शब्दयोः किं भवति? यण् न भवति। अति परे सुपि परे यण् न भवति। केन सूत्रेण यण् यणः प्राप्तिः? केन सूत्रेण यणः प्राप्तिः इत्युक्ते यरनेकाचोचि सूत्रेण यण् प्राप्तिः। नभूसुधियोः इति यण् निषेधः। इदानीं सुष्ठु ध्यायति इति सुधीः, यदि शोभनाधीः यस्य सः सुधीः इति भवति चेत् दीः इति नित्यस्त्रीलिङ्गशब्दः, अतः नदीसंज्ञा प्राप्तिः अस्ति। नदीसंज्ञा प्राप्तिः अस्ति, नेयङ्गोन् स्थानावस्त्री इति निषेधः। एवं तत्रापि सुधीः सुधियौ सुधियः इत्येव रूपम् अस्तु। एवं सुधीः सुधियौ सुधियः, हे सुधीः हे सुधियौ हे सुधियः, सुधियं सुधियौ सुधियः, सुधिया सुधीभ्यां सुधीभिः, एवं भवति। यन् सर्वत्र अकारिप्रत्ययेषु अतिष्ठु धातु पूर्वाङ्ग इति यन् भवति। नभूसुधियोः इति निषेधः। अग्रिमशब्दः एवमेव सुखमिच्छति इति सुखीः। सुखीः इत्युक्ते सुखमिच्छति यः कोऽपि मनुष्यः, स्त्री वा भवतु, पुरुषं वा भवतु, कुलं वा भवतु, सुखीः सुख्यौ सुख्यः इति भवति। तत्र किं भवति? सुखी सुख्यौ सुख्यः इत्यत्र सुखम् आत्मनः इच्छति। वस्तुतः सुखमिच्छति इति तत्र न लेखनीयं, सुखम् आत्मनः इच्छति इति सुखीः। सुप आत्मनः क्यच् इति क्यच् प्रत्ययः भवति। सणाध्यन्ता जातवः इत्यनेन समुदायस्य धातुसंज्ञा भूत्वा सुपोधातुप्रातिपदिकयोः एतत् सर्वं भवति। अस्तु, तत्र वस्तुतः सुखम् आत्मनः इच्छति इति सुखीः इति भवति। एवं सुतम् आत्मनः इच्छति इति सुतीः। यः पुत्रकामः अस्ति, यः वा या वा कामः अस्ति, सुतीः सुत्यौ सुत्यः। एवं तत्र अत्र किं भवति? अत्र कार्यं किम्? अत्र सुख्यं यण् सुखीः सुख्यौ सुख्यः, अत्र यण् भवति यरणेकाचो इति यण् यण् भवति। सुतीः सुख्यौ सुख्यः यरणेकाचो इति यण् भवति। क्षत्यात्परस्य इति एकं सूत्रं विद्यते। क्षत्यात्परस्य इति सूत्रं किं करोति? उत्त्वं करोति। इदानीं सुख्युः सुत्युः इति पंचमी वक्ति ही षट्टी वक्तौ उकारः भवति किल तत्र क्यत्यात् परस्य इति उकारः भवति। एवं ईकारान्त पुल्लिंग शब्दानां इदानीं संग्रहः कुर्मः संग्रहं कुर्मः। देयर आर अबाउट 6 टू 7 टाइप्स ऑफ ईकारान्त पुल्लिंग शब्दात् एकम् This is the most important part of the entire ikaranta purlinga shabda summary. Yadi etat na bhavati mamapi kachana yadyapi aham siddhanta kaumudi adhyayanam samapitavan tathapi mamapi bramaha bhavati kadachit kutra nadi sanya kutra nadi sanya kutra kimati evam ekavaram kim kritavan ekam table rupena sangraham kritavan. Prathama vidaha ikaranta purlinga shabdaha अनदीसंज्ञकः नदीसंज्ञा न भवति धातुः अपि न भवति। सो द फर्स्ट टाइप ऑफ ईकारान्त पुल्लिंग शब्दात् इज वेयर देयर इज नो नदीसंज्ञा नदीसंज्ञा डज नॉट कम इन टू प्ले एट ऑल नो धातु इट इज नॉट एट ऑल ए धातु। सो यदि धातुः नास्ति तर्हि तस्य औणादिकत्वेन निष्पत्तिः औणादिक वाचप्रणी शब्दः यथा अस्ति तदा कुं किं भवति इत्युक्ते सर्वत्र इको एनसि इति यनादेशः। अस्माकं वाचप्रमी शब्दः पपी शब्दः अस्ति किल पपी शब्दः सर्वत्र किं भवति यनादेशः अमी पूर्वरूपं भवति शति पूर्वसवर्णदीर्घः भवति नौ सवर्णदीर्घः भवति नौ इत्युक्ते सप्तमी एकवचनम् एतत् प्रथम फस्ट् टैप् नम्बर् वन्। द्वितीयविधः किम् अस्ति इत्युक्ते नदीसंज्ञकः अस्ति अधातुः अस्ति धातुः नास्ति तदा किं भवति नदीसंज्ञकः इत्युक्ते नदीकार्याणि भवन्ति नदीकार्याणि नाम आण्नद्याः आटश्च नेराण्नद्यान्निभ्यः न अम्बार्थनद्यो ह्रस्वः सम्बुद्धिह्रस्वः नीत्सु आडागमः आमि नुट् ह्रस्वनद्यापो नुट् नुटागमः ज्ञेः आमादेशः नदीसंज्ञककार्याणि भवन्ति परन्तु धातुः नास्ति अतः अतिष्णु धातु वा यरणेकाचो इति वा किमपि तत्र प्रसक्तिः नास्ति। इको यणचि इति यणादेशः अमिपूर्वरूपं शतिपूर्वसवर्णदीर्घः नौ सवर्णदीर्घः उदाहरणं बहुश्रेयसी शब्दः अतिलक्ष्मी शब्दः। अत्र अतिलक्ष्मी इत्यत्र अज्ञन्तत्वात् न सुलोपः बहुश्रेयसि इत्यत्र ज्ञन्तत्वात् सुलोपः। आगतं वा टैप् टु सम्बुद्धं विहाय करेक्ट् टैप् टु दिस् इस् टैप् टु। इदानीं तृतीयविधः अनदीसंज्ञकः परन्तु धातुः। सो वि आर् गोयिङ्ग् फस्ट् टैप् अनदीसंज्ञकः अधातुः Then we are keeping nadisanyakaha adhatu. Then we are going to anadisanyakaha and dhatu. Yadi anadisanyakaha dhatu, tatrapi questions. Asanyoga purvakaha dhatu. Asanyoga purvakaha ikaraha. Ityukte anekat angam. Asanyoga purvakaha dhatu. Anekat angam. Tadakim bhavati. सर्वत्र अजादिप्रत्ययेषु यरणेकाचो संयोगपूर्वस्य इति यणादेशः। अमीपूर्वरूपं भवति शतीपूर्वसवर्णदीर्घः भवति नौ सवर्णदीर्घम् एतत् सर्वं बाधित्वा यरणेकाचः सर्वत्र बाधः अमीपूर्वसवर्णदीर्घस्य बाधः अमीपूर्वरूपस्य बाधः शतीपूर्वसवर्णदीर्घस्य बाधः नौ सवर्णदीर्घस्य च बाधः सर्वत्र यण्येव प्रध्यायते इति प्रतीः। क्विबन्तवाचप्रमी शब्दः उन्नीः ज्ञेयः आमादेशः विशेषः ग्रामणीः सखायम् इच्छति इति सखीः सुखमिच्छति इति सुखीः सुतीः लुनीः क्षामीः प्रत्तीमीः एते शब्दाः नसिनसोः उत्तमं प्रत्तीमीः इत्यत्र उत्तमं भवति क्यत्यात्परस्य इत्यनेन। एवं तृतीयो विधः अनदीसंज्ञकः बट् धातु වාක්‍ය ඒතස්ස අභ්‍යාසහ බොහෝ අවශ්‍යකහ ප්‍රථමම් ශබ්ද රූපාණාම් අභ්‍යාසහ අනන්තරම් ප්‍රක්‍රියානාම් අභ්‍යාසහ when you do the prakriya and shabda roopa then when you come to the summary you will understand the summary parantu maya evam summary kartum shakyate iti idani pradarsh darshayan evam asmabhi sulabataya vishaya vibhagam kritva nyatum shakyate natu atra bhramasya avakashah va natu bhayasya avakashah ha క్షామీ అత్ర క్షామీ ఇత్యత్ర తకార్ పరస్య ఏకనిషం శామీ ఇత్యత్ర నా కత్యాత్ పరస్య ఇత్యేవ తప్ ఓ క్షామీ తప్రత్యయస్య నకారః మకారః భవతి దృష్ట్వా వదామి భవ తత్ తద్విషయ క్షామీ అనంతరం చతుర్థో విధః నదీ సంజ్ఞకః ధాతువు ధాతువు అపి అస్తి నదీ సంజ్ఞకః అస్తి అసంయోగపూర్వక ఇకారః అస్తి అనేకా సంగం అస్తి తర్హి కిం భవతి సర్వత్ర యదనేకాసో ఇది యన్ భవతి నదీ సంజ్ఞకః అస్తి నదీ సంజ్ఞక కార్యాణి భవంతి ప్రకృష్టాదీహి యస్య సః ప్రదీహి కుమారి కుమారి ఇది శబ్దః అస్తి ఏవం ఈకార నదీ సంజ్ఞకః ధాతువు పంచమ విధ అనదీసంజ్ఞక ధాతు అనదీసంజ్ఞక ఇత్యుక్తే సంయోగపూర్వక అనదీసంజ్ఞ ధాతు సంయోగపూర్వక ఈకారః అస్తి ఏకాచ్ అంగమస్తి గతికారకేతర పూర్వకః వా సుధీ శబ్దః వా అస్తి ఇత్యుక్తే నభూ తత్ర కిం అస్తి ఏకా అత్ర అతిష్ఠు ధాతు యరణేకాచ్ ఇత్యస్య ప్రసక్తిః ఏవ నాస్తి అతిష్ఠు ధాతు ఇది ఇయంగాదేశాయ భవతి సర్వం బాధిత్వా నీహి సుశ్రీహి యవక్రీహి ఇత్యత్ర ఏవం భవతి షట్టో విదః నదీ సంజ్ఞకః ధాతుః పరంతు సంయోగపూర్వకః ఇకారః ఏకాచంగం గతికారక ఇతర పూర్వకః అస్తి శుద్ధాదీహి యస్య సః పరమాదీహి యస్య సః ఏతాదృశ శబ్దాః తదా కిం భవతి సర్వత్ర అజాది ప్రత్యయేషు అతిష్ఠు ధాతు పూర్వాంగ్ ఇతి ఇయంగాదేశః అమి పూర్వరూపం షసి పూర్వసవర్ణ దీర్ఘం సర్వం బాధిత్వా ఇయంగాదేశః భవతి పరంతు నదీ సంజ్ఞకః ఇతి ఉక్తత్వాత్ నదీ సంజ్ఞక కార్యాణి భవంతి ఏవం ఈకారాంత పుల్లింగ శబ్దానాం సమాప్తిః లఘు కౌముద్యాం ఏవం రీత్యా సమాప్తిః అస్తి సిద్ధాంత కౌముద్యాం తో ఇతోపి బహవః శబ్దాః సంతి పరంతు అత్ర దిస్ రిక్వైర్స్ థరో ప్రాక్టీస్ థరో రివిజన్ వన్ టైమ్ రైటింగ్ అండ్ దెన్ పునః రికార్డింగ్ ఇత్యాది పునః తత్ర శ్రవణేన తత్ర ఏతస్య ధారణం భవతి పీపుల్ క్యాన్ సీ అండ్ టెల్ without seeing, if you have to tell ikaranta pullinga shabdas, very difficult. Prakriya tatra kutra nadi sanya, kutra nadi nadi sanya nasti, kutra kvip, kutra sarvam bahu brahmatmakam asti. Abhyasena sadhayitum shakyate. Kripaya asya abhyasam atyaiva karotu iti prarthe. Idanim agrima विषयः उकारांत शब्दाः पुल्लिंग शब्दाः उकारांत शंभुः हरिवत् भवति तत्तु शंभुः हरिवत् एवं भान्वादयः इति तत्र उक्तं त्रिज्वत् क्रोष्टुः इति अग्रिम सूत्रं तदग्रिम कक्षायां पश्यामः. कैन वी हैव अ क्लास टुमारो? ओ अस्तु हाँ अस्तु तर्हि अग्रि क्लेशः नास्ति. अग्रिम ट्यूस्डे डेट ओ किम् अवार्ड्? Oh, from whom, from, for what purpose? So, Society of Automotive Engineering, oh, USA. Sir, for what reason did you get that award, sir? Oh, what did you do, sir? I see, it's for addition. So which automobile you experimented on? Diesel engines. Okay, diesel engines. So which company you work for, sir? Oh, Amalgamations. Oh, astu. Tarihi, see, the new learners for Siddhanta Kumari are only you and Sujata Bhagini in this group. Because Subramanya Mahodaya, okay, he is a learner. Sharada Bhagini also knows Siddhanta Kumari a little bit. So, ideal situation would be, we would, then can you come back on Wednesday? No. तर्हि एकं कार्यं कुर्मः. ट्यूस्डे वयम् उकारान्तपुल्लिङ्गशब्दानां प्रक्रियाविषये ज्ञानं प्राप्नुमः. उकारान्तपुल्लिङ्गशब्दाः तत्र हरिवत् भवन्ति, तदेकं पुनरावर्तनं कृत्वा पुनरावर्तनम् आवश्यकं तस्य विषये, यतोहि हरिशब्दः इकारान्तः पूर्वं पाठितम्. अतः पुनरावर्तनं कृत्वा त्रिज्वत् क्रोष्टुः इति अग्रिमसूत्रम् अग्रिमकक्षायां कुर्मः. अस्तु धन्यवादः. येनाक्षरसमां नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं नत्वा सरस्वतीं देवीम्.